इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। अनेकेषु राज्येषु केन्द्रशासित प्रदेशेषु च मतदातृसूच्यां विशेष गहन संशोधनस्य SIR विषये निरन्तरं विरोध प्रदर्शनात् लोकसभा अद्य दिवसपर्यन्ताय स्थगिता। संसदीय कार्यमंत्री किरेन रिजिजुः अवदत् यत् अस्मिन् मासे अष्टमे दिनांके राष्ट्रिय गीतस्य वन्दे मातरम् इत्यस्य सार्धैक शततमे वार्षिकोत्सवस्यावसरे लोकसभायां विशेष चर्चा भविष्यति। निर्वाचनायोगेन पश्चिम बंगाल राज्यस्य प्रायः 78,200 बूथ केन्द्रेषु 100% गणना प्रपत्राणां प्रस्तुतीकरण विषये विस्तृतं प्रतिवेदनं याचितम्। काशी तमिल संगमम् इत्यस्य चतुर्थ संस्करणम् अद्य उत्तर प्रदेशस्य वाराणस्यां नमोघट्टे समारब्धम्। अपि च चक्रवातः द्वित्वा अद्य दुर्बलः भूत्वा दावक्षेत्रेण परिवर्तितः। ऋतुविभागेन चेन्नई तिरुवल्लूर चेंगलपट्टु कांचीपुरम् इत्येतेषु मण्डलेषु आगामि 24 होरासु अतिवृष्टेः रक्तवर्णीया सञ्चेतना प्रसारिता अस्ति। अथ वार्ताः विस्तरेण। अनेकेषु राज्येषु केन्द्रशासित प्रदेशेषु च मतदातृसूच्यां विशेष गहन संशोधनस्य SIR विषये निरन्तरं विरोध प्रदर्शनात् लोकसभा दिवसपर्यन्ताय स्थगिता। विपक्षस्य SIR विषये चर्चायाः आग्रहणानन्तरं अन्ते दिवसपर्यन्तं स्थगनात् पूर्वं सभायां द्वौ स्थगनौ दृष्टौ। राज्यसभापि नियतकार्याणां समाप्तेः अनन्तरं दिनपर्यन्तं स्थगिता। अपराह्णे द्विवादने द्वितीयस्थगनस्यानन्तरं यदा लोकसभायाः उपवेशनं पुनः आरब्धं तदा विपक्षस्य सदस्याः पुनः मध्ये आगत्य SIR विरुद्धम् उद्घोषणं कृतवन्तः। पीठासीन अधिकारिणः वारं वारं निवेदनानन्तरमपि विपक्षेण स्वप्रदर्शनं न स्थगितं, येन सभायाः कार्यमेव दिवसाय स्थगितम्। पूर्वं यदा लोकसभायाः प्रथमस्य स्थगनस्यानन्तरं मध्याह्ने 12 वादने सम्मेलनम् अभवत् तदा कांग्रेस DMK TMC इत्यादि दलानां विपक्षस्य सदस्याः मध्ये आगत्य प्रदर्शनं कृतवन्तः। संसदीय कार्यमंत्री किरेन रिजिजुः विपक्षीय सदस्यैः सह आग्रहं कृतवान् यत् ते सभायाः कार्येषु विघ्नं न जनयन्तु इति। सः अवदत् यत् सर्वकारः सभायां कस्यापि विषये चर्चां कर्तुं सज्जः अस्ति। विपक्षस्य प्रदर्शनानन्तरं पीठासीन अधिकारिणा निम्नसदनम् अपराह्णे 2 वादनं यावत् स्थगितम्। राज्यसभायाम् अपराह्णे 2 वादने प्रथमस्य स्थगनस्यानन्तरं यदा सभा आरब्धा तदा संसदीय कार्यमन्त्री किरेन रिजिजुः पुनः उक्तवान् यत् निर्वाचन परिष्कारः इत्यस्मिन् विषये चर्चार्थं सर्वकारः सज्जः अस्ति इति। सभायां विपक्षस्य नेता मल्लिकार्जुन खड़गे अवदत् यत् SIR इत्यस्य 67,200 नियमे प्राधान्येन चर्चां कर्तुं शक्यते। अत्रान्तरे संसदा मणिपुर वस्तुसेवाकरः इत्यस्य द्वितीयं संशोधन विधेयकं 20-25 राज्यसभायां चर्चायाः अनन्तरं लोकसभां प्रति प्रत्यावर्तितम्। संसदीय कार्यमंत्री किरेन रिजिजुः अवदत् यत् अस्मिन् मासे अष्टमे दिनांके राष्ट्रिय गीतस्य वन्दे मातरम् इत्यस्य सार्धैक शततमे वार्षिकोत्सवे इत्यस्मिन् अवसरे लोकसभायां इत्यस्मिन् विषये चर्चा भविष्यति।
आज लोकसभा स्पीकर के चैम्बर में ऑल पार्टी फ्लोर लीडर्स का मीटिंग अच्छी तरह से हुई है और हम इस बात पे सहमति हो पाया है कि मंडे को लोकसभा में वंदे मातरम के 150 साल पूरे होने पर हम विशेष चर्चा करेंगे। उसके बाद मंगलवार को लोकसभा में इलेक्शन रिफॉर्म्स को लेकर के हम दिन भर चर्चा करेंगे। 10 घंटे का टाइम तय किया गया है, अगर जरूरत पड़ेगा तो उसमें हम टाइम एक्सटेंशन करेंगे, इस पे हम एग्रीमेंट हुए हैं। मैं इस चीज को करके सब पार्टी के नेताओं को फिर से अपील करना चाहता हूं। हम सब चाहते हैं कि पार्लियामेंट हाउस अच्छी तरह से चले।
निर्वाचनायोगेन पश्चिम बंगाल राज्यस्य प्रायः 78,200 बूथ इति केन्द्रेषु 100% गणना प्रपत्राणां प्रस्तुतीकरण विषये विस्तृतं प्रतिवेदनं याचितम्। एतेभ्यः केन्द्रेभ्यः किमपि असंकलनीय पत्राणि न प्राप्तानि, यानि अवास्तविकानि इव दृश्यन्ते इति सः अवोचत्। मण्डल निर्वाचनाधिकारिभ्यः अद्य प्रातः 10 वादनपर्यन्तं स्वस्य प्रतिवेदनानि समर्पयितुं निर्देशः प्रदत्तः आसीत्। भाजपेति दलेन आरोपितं यत् केचन राजनैतिक प्रेरित खण्ड विकास अधिकारिणः बूथस्तरीय अधिकारिणाम् उपरि स्वस्य ओटीपी इति संख्याः प्रेषयितुं पीडयन्तः सन्ति, येन मृतानां स्थानान्तरितानां अवैध बांग्लादेशी प्रवासिनां च नामानि वर्तमान एसआईआर प्रक्रियायां समावेशयितुं शक्यन्ते। निर्वाचनायोगेन नियुक्तः विशेष अनुक्रमणिका पर्यवेक्षकः सुब्रत गुप्ता एसआईआर प्रक्रियया सम्बद्धाः संकटं परिहर्तुं जनैः राजनैतिकदलैः संघटनैः च सह परामर्शं प्रारभत। ह्यः सीपीआईएम तथा कांग्रेस दलस्य सदस्याः विशेष रोल ऑब्जर्वर इत्यनेन सह मिलित्वा स्वचिन्तां प्रकटितवन्तः। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज़ ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। शुक्लयजुर्वेदस्य माध्यान्दिन शाखायाः 2000 मन्त्रयुतं दण्डक्रम पारायणं 50 दिनेषु विरामं विनैव सम्पन्नं कर्तुं वेदमूर्तये देवव्रत महेशरेखे वर्याय प्रधानमन्त्रिणा नरेन्द्रमोदिना अभिनन्दितम्। सामाजिकान्तर्जालीये सन्देशे श्रीमोदी उक्तवान् यत् 29-वर्षीयः वेदमूर्ति देवव्रत महेशरेखे यत् कृतवान् तत् आगामि सन्ततयः स्मरिष्यन्ति इति। काशी तमिल संगमम् इत्यस्य चतुर्थ संस्करणम् अद्य उत्तर प्रदेशस्य वाराणस्यां नमोघट्टे समारब्धम्। केन्द्रीय शिक्षा मन्त्री धर्मेन्द्र प्रधानः, उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथः च संयुक्तरूपेण अस्य कार्यक्रमस्य उद्घाटनं कृतवन्तौ, यस्य उद्देश्यम् उत्तर दक्षिणयोः मध्ये सम्बन्धान् सुदृढं कर्तुमस्ति। अस्मिन् वर्षे कार्यक्रमस्य विषयः लेट्स लर्न तमिल और तमिल करकलम इति अस्ति। गत रविवासरे स्वस्य मन की बात इत्यस्मिन् कार्यक्रमे प्रधानमन्त्री उक्तवान् यत् काशी तमिल संगमम् इतीदं तमिल भाषया सम्बद्धानां सर्वेषां कृते महत्वपूर्णं मञ्चः अभवदिति।
काशी तमिल संगमम उन सभी लोगों के लिए एक महत्वपूर्ण मंच बन गया है जिन्हें तमिल भाषा से लगाव है। काशी के लोगों से जब भी बात होती है तो वो हमेशा बताते हैं कि काशी तमिल संगमम का हिस्सा बनना उन्हें बहुत अच्छा लगता है। यहाँ उन्हें कुछ नया सीखने और नए नए लोगों से मिलने का अवसर मिलता है। इस बार भी काशीवासी पूरे जोश और उत्साह के साथ तमिलनाडु से आने वाले अपने भाई बहनों का स्वागत करने के लिए बहुत उत्सुक है।
प्रधानमंत्री नरेंद्र मोदी अद्य काशी तमिल संगमम इत्यस्य आरंभाय शुभाशयाः प्रेषितवान्। सामाजिकान्तर्जालीय सन्देशे श्रीमोदी उक्तवान् यत् अयं जीवन्तः कार्यक्रमः एक भारत श्रेष्ठ भारत इत्यस्य भावं सुदृढं करोति इति। कार्यक्रमावधौ नागरिकाणां काशीवासः चिरस्मरणीयवासः भवेदिति प्रधानमन्त्रिणा प्रार्थितम्। चक्रवातः दित्वा अद्य दुर्बलः भूत्वा दाबक्षेत्रेण परिवर्तितः अस्ति। दित्वा चक्रवातः दक्षिण पश्चिम बंगालखात्याः समीपस्थेषु क्षेत्रेषु दक्षिण आन्ध्रप्रदेशस्य तटेषु अस्ति। ऋतुविभागेन चेन्नई, तिरुवल्लूर, चेंगलपट्टु, कांचीपुरम इत्येतेषु मण्डलेषु आगामि 24 होरासु अतिवृष्टेः रेड अलर्ट इति रक्तवर्णीया सञ्चेतना प्रसारिता अस्ति। ऋतुविभागेन श्वः पर्यन्तम् अस्मिन् प्रदेशे मत्स्यपालन कार्याणि पूर्णतया अवरोधयितुं निर्देशः प्रदत्तः अस्ति। आपत्प्रबन्धन केन्द्रेण उक्तं यत् श्रीलंकादेशे दित्वा चक्रवातस्य अनन्तरं व्यापकरूपेण विनाशे मृतकानां संख्या 10-400 यावत् वर्धिता, अधुनापि 37-300 यावत् जनाः लुप्ताः सन्ति इति। भाजपेति दलस्य वरिष्ठः नेता डॉ प्रेमकुमारः 18तमे बिहार विधानसभायाः नूतनः अध्यक्षः निर्वाचितः। प्रोटेम स्पीकरः नरेन्द्र नारायण यादवः अद्य विधानसभायाः सत्रस्य द्वितीये दिने सर्वसम्मत्या निर्वाचनस्य घोषणाम् अकरोत्। सः निर्विरोधं निर्वाचितः। उल्लेखनीयं यत् भाजपेति दलस्य वरिष्ठः नेता डॉ प्रेमकुमारः गया नगर विधानसभाक्षेत्रात् नवमवारं विधायकः निर्वाचितः अस्ति। सः पूर्ववर्तिषु अनेकेषु सर्वकारेषु विभिन्नेषु मन्त्रिपदेषु स्थितवान् अस्ति इति वार्ताः।